इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः सुरेशचन्द शर्मा। इदानीं वार्ताः। भारतीय जनता पार्टीति दलस्य वरिष्ठो नेता देवेन्द्र फडणवीसः अद्य तृतीयं वारं महाराष्ट्रस्य मुख्यमन्त्रीरूपेण शपथवचनं स्वीकरिष्यति। महाराष्ट्रस्य राज्यपालमहोदयः सीपी राधाकृष्णन् इत्यसौ अद्य सायंकाले 5:30 मुम्बय्याः ऐतिहासिके आजाद मैदान इति प्रांगणे पदगोपनीयतायाः शपथं दापयिष्यति। एतत्पूर्वं गतदिने श्री फडणवीसः सर्वसम्मत्या भाजपा विधायक दलस्य नेतृरूपेण चितः। श्री फडणवीसः सहयोगिभिः दलप्रमुखैः शिवसेनाप्रमुखेण एकनाथ शिन्दे इत्यनेन अथ एनसीपी दलप्रमुखेण अजित पवार इत्यनेन च साकं राज्यपालवर्येण साकं उपवेशनं कृतवान्। अद्य शपथग्रहणसमारोहे प्रधानमन्त्री श्रीनरेन्द्रमोदी एनडीए ग्रन्थियुतशासनानां मुख्यमन्त्रिणः केन्द्रीयमन्त्रिणश्च समारोहे एतस्मिन् भागं भजिष्यन्ति। विदेशमन्त्री डॉ सुब्रह्मण्यम् जयशंकरः गतदिने नवदेहल्यां स्वीय कुवैत देशीय समकक्षेण अब्दुल्ला अली अल याह इत्यनेन साकं बहुविध विषयात्मकीं चर्चां कृतवान्। एतस्मिन् उपवेशने भारत कुवैत देशयोः सम्बन्धानां सुदृढीकरणे मुख्यत्वेन मन्त्रणा सञ्जाता। उभाभ्यां नेतृभ्यां सहयोगाय एकस्य संयुक्त आयोगस्य स्थापनायै अनुबन्ध ज्ञापने हस्ताक्षराणि विहितानि। भूटान नरेशः जिग्मे खेसर नामगेल वांगचुक इत्यसौ अथ महारानी जेट्सन पेमा वांगचुक इत्येषा च अद्य प्रभृति द्विदिवसीयायां भारत यात्रायाम् आगमिष्यतः। भूटान नरेशः प्रधानमन्त्रिणा नरेन्द्रमोदिना साकं मेलनं करिष्यति। विदेशमन्त्री डॉ सुब्रह्मण्यम् जयशंकरः शासनस्य नैके वरिष्ठाधिकारिणश्चापि भूटान नरेशेण साकं चर्चां करिष्यन्तः। भारतीय अन्तरिक्ष अनुसन्धान संघटनम् प्राप्तविसंगतेः कारणात् अद्य अपराह्ने 12:04 श्रीहरिकोटायाः सतीश धवन अन्तरिक्ष केन्द्रात् PSLVC प्रोबाथ्री इत्येतस्य प्रक्षेपणं पुनर्निर्धारितम्। यूरोपीय अन्तरिक्ष संस्थायाः प्रोबाथ्री प्रक्षेपणोपक्रमः भारतीय अन्तरिक्ष अनुसन्धान संघटनस्य न्यू स्पेस इण्डिया लिमिटेड इत्येतस्याः वाणिज्यिक शाखायाः सहयोगेन भवति। भारतेन विकासशील राष्ट्राणाम् उत्तम सहयोगार्थं वैश्विक वित्तीय व्यवस्थायां परिवर्तनस्य आह्वानं कृतम्। अन्ताराष्ट्रिय वित्तीय संस्थासु वैश्विक दक्षिणस्य अधिकं प्रतिनिधित्वं बहुपक्षीय विकास बैंक इत्येतेषां वित्तपोषणं वर्धयितुं च बलं दत्तम्। संयुक्त राष्ट्रसंघस्य उपवेशने प्रवदन्ती विदेश मन्त्रालयस्य आर्थिक कार्य विभागस्य परामर्शदा भारतस्य सुश्री गीतु जोशी विकासशील देशानाम् आवश्यकताः प्रति अधिकं प्रतिक्रियाशीलस्य वित्तीय व्यवस्थायाः आवश्यकतायाः उपरि बलं दत्तवती। श्री जोशी भारतस्य मानव केन्द्रित विकास प्रतिरूपं वैश्विक दक्षिणस्य उदाहरणरूपेण प्रकाशितं यत् 25 कोटि जनाः निर्धन रेखात् बहिः उत्थापिताः। रक्षामन्त्री राजनाथ सिंहः नौसेना दिवसस्य अवसरे भारतीय नौसेनायाः सैनिकेभ्यः परिवारेभ्यश्च शुभकामनाः प्रदत्तवान्। अन्ते च क्रीडा वार्तासु। होकी इति क्रीडायां गतदिने सायंकाले ओमान देशस्य मस्कट नगरे पुरुषाणां कनिष्ठ होकी एशिया चषक क्रीडायाः निर्णायक स्पर्धायां भारतीय दलेन पाकिस्तान दलं पराजितम्। प्रतियोगितायां विजेत्री भारतेन अस्यां स्पर्धायां पञ्चमं वारं तथा च क्रमशः तृतीयं वारं विजयं प्राप्तम् इति वार्ताः।